मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्र जिह्वे न च घ्राण नेत्रे न च व्योम भूमिर्न तेजो न वायु चिदानंद रूपः शिवोहं शिवोहं चिदानंद रूपः शिवोहं शिवोहं न च प्राण संज्ञो न वै पञ्च वायु न वा सप्त धातुर् न वा पंचकोश न वा पाणिपादौ न चोपस्थपायु चिदानंद रूपः शिवोहं शिवोहं चिदानंद रूपः शिवोहं न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भावः न धर्मो न चार्थो न कामो न मोक्षः चिदानन्द रूपः शिवोहं शिवोहं चिदानन्द शिवोहं शिवोहं न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदः न यज्ञः अहं भोजनं नैव भोज्यं न भोक्ता चिदानंद रूपः शिवोहं शिवोहं चिदानंद रूपः शिवोहं शिवोहं न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोहं शिवोहं चिदानन्दरूपः शिवोहं अहं निर्विकल्पो निराकाररूपो विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणां न चासङ्गतं नैव मुक्तिर्न मेयः चिदानन्दरूपः शिवोहं शिवोहं चिदानन्द चिदानंद रूपः शिवोहं शिवोहं चिदानंद।